इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी श्वः कुवैत देशस्य द्विदिवसीय यात्रायां भविष्यति। उभौ सदनौ अनिश्चित कालं यावत् स्थगितौ। लोकसभया एकं राष्ट्रं एकं निर्वाचनं सम्बद्धौ द्वौ विधेयकौ संसदः संयुक्त समितेः कृते निर्दिष्टौ। राष्ट्रपतिः द्रौपदी मुर्मुः अकथयत् यत् अधुना भारते प्रौद्योगिकीय दृष्ट्या उन्नतोपकरणानां निर्माणे स्वावलम्बनस्य नूतनचरणस्य आरम्भस्य समयः अस्ति। अपि च राजस्थाने अद्य प्रातः जयपुरस्य भांकरोटा क्षेत्रे घटितस्य गैस टैंकर इति वातीन्धन वाहक यानयोः अग्निप्रसंगे मृतानां संख्या नवपर्यन्तं वर्धिता अस्ति। 30 यावत् जनाः घातिताश्च सन्ति। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी श्वः कुवैत देशस्य आमिर शेख मिशल अल अहमद अल जुबेर अल सबाह इत्यस्य आमन्त्रणे द्विदिवसीय यात्रायां भविष्यति। अस्मिन्नवधौ प्रधानमन्त्री कुवैत देशस्य नेतृभिः सह चर्चां करिष्यति। प्रधानमन्त्री कुवैत देशे भारतीय समुदायेन सह अपि संवादं करिष्यति। अद्य सायंकाले नवदिल्ल्यां वार्ताहरान् संसूचयन् सचिवः अरुण कुमार चटर्जी अवदत् यत् 30-40 वर्षेषु भारतीय प्रधानमन्त्रिणः कुवैत देशस्य एषा प्रथमा यात्रा भविष्यति इति। अस्मिन् वर्षे सितम्बर मासे UNGA इत्यस्य सत्रस्य समये प्रधानमन्त्री सद्यः एव कुवैत देशस्य युवराजं मिलितवान्। लोकसभायाः राज्यसभायाः च अनिश्चितकालं यावत् स्थगनस्य कारणात् अद्य संसदः शीतकालीनसत्रं समाप्तम्। लोकसभायाम् अद्य प्रातः यदा सभा आरब्धा तदा डॉ V.R. अम्बेडकरवर्यस्य विषये केन्द्रीयगृहमन्त्रिणः अमितशाहस्य वक्तव्यस्य विषये विपक्षस्य सदस्याः कोलाहलं कृतवन्तः। कोलाहलस्य मध्ये अध्यक्षः ओम बिरला सांसदेभ्यः आग्रहम् अकरोत् यत् सर्वे नियमान् कठोरतया पालयन्तु, संसदः कस्मिन्नपि द्वारे विरोधं न कुर्युः इति। सः तान् कस्यापि विचलनस्य सन्दर्भे कार्यजातस्य पूर्वसूचनाम् अददात्।
मैं आप सभी से पुनः आग्रह करता हूं कि संसद की गरिमा मर्यादा सबकी सामूहिक जिम्मेदारी है। संसद भवन परिसर में किसी भी द्वार पर किसी भी तरह का धरना प्रदर्शन करना उचित नहीं है। आप सभी को इस विषय पर नियमों की अनुपालना करना सुनिश्चित करना पड़ेगा, नहीं तो संसद को उचित कार्रवाई करनी पड़ेगी।
कोलाहलस्य मध्ये लोकसभया एकं राष्ट्रं एकं निर्वाचनं सम्बद्धौ द्वौ विधेयकौ संसदः संयुक्त समितेः कृते निर्दिष्टौ। समितौ लोकसभायाः 27 सदस्याः, राज्यसभायाः 12 सदस्याः च सन्ति। समितिः अग्रिम संसद सम्मेलनस्य अन्तिम सप्ताहाभ्यन्तरे प्रथम दिवसे एव स्वप्रतिवेदनं सभायां समर्पयिष्यति। पश्चात् अध्यक्षः ओम बिरला सभाम् अनिश्चितकालं यावत् स्थगितवान्। राज्यसभायाम् अपि प्रातःकाले पक्षस्य विपक्षस्य च मध्ये घोषणां प्रतिघोषणानां च अनन्तरं कोलाहलपूर्णानि दृश्यानि दृष्टानि। कोलाहलमध्ये सभापतिः जगदीप धनखड़ः अपराह्णे 12 यावत् सभां स्थगितवान्। यदा अपराह्णे उच्चसदनस्य पुनः संयोजनं जातं तदा एकं राष्ट्रं एकं निर्वाचनम् इत्यस्य विधेयकस्य विषये संसदः संयुक्त समितेः कृते 12 नामांकनस्य प्रस्तावः प्रस्तावितः। सभापतिः जगदीप धनखड़ः स्वीये समापन भाषणे दुःखं प्रकटितवान् यत् अस्मिन् सत्रे निरन्तर बाधायाः कारणात् उत्पादकता केवलं 40% एव आसीत्। असौ अवदत् यत् 67-200 इत्यस्य नियमस्यान्तर्गतं प्रस्तावस्य अनुचित प्रक्षेपणं निराशायुतम् अस्ति।
These parliamentary disruptions, no public trust and expectations, our fundamental duty to serve with diligence lies neglected. I urge every parliamentarian, regardless of party, to examine their conscience. The citizens of our democracy, 1/6 of humanity, deserve better than this spectacle. We squander precious opportunities that could serve the greater good of our people.
पश्चात् धनखड़ वर्यः उच्चसदनम् अनिश्चितकालं यावत् स्थगितवान्। गतमासस्य पञ्चविंशति दिनांके संसदः शीतकालीन सत्रं प्रारब्धम् आसीत्। राष्ट्रपति द्रौपदी मुर्मू अकथयत् यत् अधुना भारते प्रौद्योगिकीय दृष्ट्या उन्नतोपकरणानां निर्माणे स्वावलम्बनस्य नूतन चरणस्य आरम्भस्य समयः अस्ति। राष्ट्रपतिः सशस्त्र सेवानां स्वावलम्बनाय आत्मनिर्भर भारतस्य संकल्पं साकारयितुं च योगदानं कर्तुं आदिष्टवती। राष्ट्रपतिः मुर्मुः अद्य तेलंगाना राज्ये आयोजिते औपचारिक कार्यक्रमे सिकंदराबाद नगरस्य प्रतिष्ठित रक्षा प्रबंधन महाविद्यालयाय प्रेसिडेंट्स कलर्स इति राष्ट्रपति वर्ण पुरस्कारं प्रदानं कृत्वा संबोधितवती। प्रेसिडेंशियल कलर्स इति कस्यापि संस्थानस्य व्यावसायिक उत्कृष्टतायाः प्रमाणमस्ति। राष्ट्रपतिः अवदत् यत् देशस्य आत्मनिर्भरता रक्षाक्षेत्रे सामरिक सहभागिता च न केवलं देशस्य सीमायाः रक्षणं करिष्यति, अपितु तस्य सामरिक वैश्विक सहभागित्वम् अपि सुदृढं करिष्यति इति। एषा अकथयत् यत् प्रशासनेन रक्षा उद्योगस्य स्वदेशीय क्षमतानां वर्धनाय अनेकाः उपायाः कृताः, यद्यपि अस्माकं रक्षाक्षेत्रे निवेशं प्रोत्साहितुम् अनेकाः उपक्रमाः कृताः।
With emphasis on indigenization, many defense products have been identified for domestic manufacturing and will not be imported. Time is now ripe for launching a new phase of self-reliance by manufacturing technologically advanced equipment within India.
संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। राजस्थाने अद्य प्रातः जयपुरस्य भांकरोटा क्षेत्रे घटितस्य गैस टैंकर इति वातीन्धन वाहक यानयोः अग्निप्रसंगे मृतानां संख्या 9 पर्यन्तं वर्धिता अस्ति। 30 यावत् जनाः घातिताः च सन्ति। अजमेर राजमार्गस्य समीपे प्रातः 6 वादने वातीन्धन वाहक वाहनौ संघटितौ जातौ। घटनायाः अनन्तरं अग्निकाण्डे 39 ट्रक वाहनानि, 2 बसयाने च समेत्य प्रायः 40 वाहनानि नष्टानि अभवन्। अग्निकाण्डे 4 जनाः घटनास्थले एव मृत्युमुपगताः, अन्ये 3 जनाः चिकित्सावधौ मृताः जाताः। अस्याः घटनायाः अन्वेषणाय उच्चस्तरीय समित्याः निर्माणं कृतम्। अस्माकं संवाददात्रानुसारी घटनायाः अनन्तरं सम्पूर्णे क्षेत्रे अराजकतायाः स्थितिः अभवत्। प्रधानमन्त्री नरेन्द्रमोदी अद्य राजस्थानस्य मुख्यमन्त्रिणा भजनलालशर्मणा सह वार्तालापं कृत्वा जयपुरस्य दुर्भाग्यपूर्णस्य अग्निकाण्डस्य विषये पृष्टवान्। प्रधानमन्त्रिणा केन्द्रस्य सर्वसम्भवं सहयोगं प्रदातुम् उक्तम्। केन्द्रीय गृहमन्त्री अमितशाह अद्य पश्चिमबंगस्य सिलीगुड़ीनगरस्य रानीडांगायां सशस्त्रसीमाबलस्य एसएसबी इत्यस्य 61वें स्थापनादिवसकार्यक्रमे मुख्यातिथिरूपेण सम्मिलितः। सः हुतात्मवीराणां श्रद्धाञ्जलिम् अर्पितवान्, ततः परम् अभिवादनम् अगृह्णात्। कार्यक्रमे एसएसबी इत्यस्य महानिदेशकः अमृतमोहन प्रसादः अपि उपस्थितः आसीत्। अमितशाह एसएसबी कर्मचारिभ्यः वीरता पुरस्कारम् अपि प्रदत्तवान्। हरियाणा राज्यस्य पूर्व मुख्यमंत्री भारतीय राष्ट्रीय लोकदलस्य वरिष्ठः नेता च ओम प्रकाश चौटाला अद्य गुरुग्राम नगरे दिवंगतः। सः 89 वर्षीयः आसीत्। हरियाणा राज्यस्य 5 वारं मुख्यमंत्री पदासीनः पूर्व उप प्रधानमन्त्रिणः देवीलाल वर्यस्य पुत्रः च ओम प्रकाश चौटाला स्वीये गुरुग्राम निवासे हृदयाघातेन पीडितः, तत्क्षणमेव चिकित्सालयं नीतः परन्तु रक्षितं न शक्तः इति वार्ताः।